इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। अद्य अन्ताराष्ट्रिय महिला दिवसः आचर्यते। एषः दिवसः यदा महिलाः राष्ट्रिय जातीय भाषिक सांस्कृतिक आर्थिक राजनैतिक सीमाभ्यः पारं कृत्वा स्वस्य उपलब्धिभिः स्वीकृताः भवन्ति। 25,000 अन्ताराष्ट्रिय महिला दिवसस्य विषयः वर्तते सर्वासां महिला बालिकानां च कृते समानाधिकाराः समता सशक्तिकरणं चेति। महिला बाल विकास मन्त्रालयः नवदिल्ल्याम् अद्य विज्ञान भवने नारी शक्ति से विकसित भारत इति विषयम् आधृत्य राष्ट्रिय स्तरीयं सम्मेलनम् आयोजयति। राष्ट्रपति द्रौपदी मुर्मू सम्मेलनस्यास्य उद्घाटनं करिष्यति। उद्घाटन सत्रस्य अनन्तरं उच्चस्तरीया चर्चा भविष्यति। विभिन्न क्षेत्रस्य प्रसिद्धाः महिला नेत्रीणां सन्निधौ त्रीणि प्रौद्योगिक सत्राणि आयोजितानि भविष्यन्ति। तत्रैव प्रधानमन्त्री नरेन्द्रमोदी अद्य गुजरातस्य नवसारी मण्डले बानसी बोरसी इत्यत्र लखपति दीदीति सम्मेलने भागं ग्रहीष्यति। प्रधानमन्त्री 25,000+ स्वसहायता समूहेभ्यः 2,50,000 महिलाभ्यः 4,40,00,000 रूप्यकाणां सहायतां वितरिष्यति। अस्मिन् कार्यक्रमे नवसारी बालसाद डांग मण्डलानां 1,00,000 लखपति दीदी उपस्थिताः भविष्यन्ति। सद्यः एव प्रधानमन्त्रिणा अन्ताराष्ट्रिय महिला दिवसात् पूर्वं नमो एप ओपन फोरम इत्यत्र स्वस्य प्रेरणास्पद जीवनयात्राः प्रसारयितुं सम्पूर्णे भारते महिलाः प्रोत्सिताः। विशेष परिकल्पनारूपेण श्रीमोदिना घोषितं यत् चयनिताः महिलाः स्वस्य स्वरम् अनुभवं च प्रवर्धयितुं मार्च मासस्य 8 दिनांके तस्य सामाजिक संचार पटलानां कार्यभारं स्वीकुर्वन्ति। अस्य उपक्रमस्य उद्देश्यं महिलानां योगदानस्य उत्सवः परिपालनीयः अस्ति। अन्येषां च सशक्तिकरणस्य दृढतायाः सफलतायाः यात्रां प्रदर्शयित्वा प्रेरणा प्रदानम् अस्ति। भारतामेरिका देशौ बहुक्षेत्रीय द्विपक्षीय व्यापार सम्बन्धे चर्चां प्रवर्तयितुं प्रक्रियायां स्तः। नवदिल्ल्यां वार्ताहरान् ज्ञापयन् विदेश मन्त्रालयस्य प्रवक्ता रणधीर जयशवालः अवदत् यत् गतमासे प्रधानमन्त्रिणः मोदिनः अमेरिकादेशस्य यात्रावधौ उभौ पक्षौ परस्परं लाभप्रदस्य बहुक्षेत्रीयस्य द्विपक्षीय व्यापार सम्बन्धेषु वार्तायाः योजनानां घोषणां कृतवन्तौ। सः अवदत् यत् वाणिज्योद्योगमन्त्री पीयूषगोयलः अमेरिकादेशे अस्ति, तस्य समकक्षेण च सः मिलितवान्। विदेशमन्त्री अमेरिकादेशस्य यात्रावधौ सुरक्षोल्लङ्घनस्य विषये जयशवालः अवदत् यत् भारतेन अमेरिकीयाधिकारिणां सम्मुखे स्वस्य गहनचिन्ता प्रकटिता। चतुरङ्गक्रीडायाम् 18-वर्षीयः भारतीय क्रीडकेन प्रणव वेङ्कटेशेन गतरात्रौ मोण्टेनोग्रो देशे 25,000+ फिडी वर्ल्ड जूनियर चैम्पियनशिप इति प्रतियोगिता विजिता। तेहरान्नगरे आयोक्ष्यमाणे 60तमायां एशिया महिला कबड्डी प्रतियोगितायां भारतेन नेपालदेशं पराजित्य प्रतियोगितायाः अन्तिमचक्रे प्रवेश कृतः। अद्य भारत ईरान दलयोर्मध्ये अन्तिमक्रीडा भविष्यति। बैडमिंटन क्रीडायां भारतस्य आयुष शेट्टी फ्रांस देशस्य आर्लियंस मास्टर सुपर 300 इत्यस्याः क्रीडायाः पुरुषैकलोपान्त्यचक्रीय क्रीडायां प्रविष्टः। इति वार्ताः।